भगवते वासुदेवाया। अथ त्रयोदशो अध्यायः। अर्जुन उवाच, प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च, एतद्वेदितुमिच्छामि, ज्ञानं ज्ञेयं च केशव। श्री भगवान उवाच, इदं शरीरं कौन्तेय क्षेत्रम् इत्यभिधीयते, एतद्यो वेत्ति तं प्राहु क्षेत्रज्ञ इति तद्विदा। क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत, क्षेत्र क्षेत्रज्ञयोर्ज्ञानं यत्तत् ज्ञानं मतं मम, तत्क्षेत्रं यच्च यादृक् च यद्विकारी यतश्चया, सचयो यत्प्रभावश्च तत्समासेन मे शृणु। ऋषिभिः बहुधा गीता छन्दोभिः विविधे पृथा, ब्रह्मसूत्रापदेश्चैव हेतुमद्भिर्विनश्चिते। महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च, इन्द्रियाणि दशेकं च, पञ्चचेन्द्रियगोचरा, इच्छा द्वेष सुखं दुःखं संघातश्चेतनादृते, एतत् क्षेत्रं समासेन स्वीकारं उदारितम्। अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम्, आचारोपासनं शौचम्, स्थैर्यमात्मविनिग्रह, इन्द्रियार्थेषु वैराग्यम्, अनहंकार एव च, जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम्, अशक्तिरनभिस्वङ्गा पुत्रदार गृहादिषु, नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु, मयि चानन्ययोगेन भक्तिरव्यभिचारिणी, विविक्तदेशसेवित्वम् अरतिर्जनसंसदि, अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम्, एतत् ज्ञानम् इति प्रोक्तम्, अज्ञानं यदतोऽन्यथा। ज्ञेयं यत्तत् प्रवक्ष्यामि यद्ज्ञात्वा अमृतमश्नुते, अनादि मत्परं ब्रह्म न सत्तत् न सदुच्यते सर्वतः पाणि पादं तात् सर्वतोक्षे शिरोमुखम् सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वेन्द्रिय गुणाभासं सर्वेन्द्रिय विवर्जितं असक्तं सर्वभृत्यैव निर्गुणं गुणभोक्तृ च बहिरन्तश्च भूतानां अचरं चरमेव च सूक्ष्मत्वादविज्ञेयं दूरस्थं चान्तिकेचय अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्त्रे च तद्गेयं ग्रशिष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योति तमसा परम उच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासता मद्भक्तैतद्विज्ञाय मद्भावायुपपद्यते प्रकृतिं पुरुषं चैव विद्यनादि उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृति सम्भवान् कार्यकरणकर्तृत्वे हेतु प्रकृतिरुच्यते पुरुषा सुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुषा प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गोष्य सदसद् यो निजन्मषु उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरा परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषा पदा य एवं वेत्ति पुरुषं प्रकृतिं च गुणेशः सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये त्वेवम् अजानन्ता श्रुत्वान्येभ्य उपासते तेऽपि चाते तरन्ते वा मृत्युं श्रुतिप्रणायण यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगा तद्विद्धि भरतर्षभ samam sarvesu bhuteshu tishtantam parameswaram vinasyat so avinasyantam yapasyati sapasyati samam pasyan hi sarvatra samavastitam iswaram nahinastyatmanatmanam tato yati parangatim prakriteva cha karmani kriyamanani sarvasha yapasyati tathatmanam akartaram sapasyati yadabhuta prithakbhavam ekastham anupasyati tateva cha vistaram brahma sampadyate tatha anadityat nirgunatvat paramatmayam avyayam sarirasthopi kaunteya na karoti na lipyate yatha sarva gatam sokshmyat akasam nopalipyate sarvatravastito dehe tathatmano palipyate yatha prakayas sayateka krishnam lokam imam ravi kshetram kshetri tatha krishnam prakasati bharata kshetra kshetra gyayorevam antaram jnana chakshusha bhuta prakriti moksham cha ye vidur yanti te param om tat sad iti srimad bhagavad gita su upanishad su brahma vidyayam yoga shastre shri krishna arjuna samvade kshetra kshetra gya vibhaga yogo nama trayodasho adhyaya.